इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। असम केरलम् केन्द्रशासित पुदुच्चेरी प्रदेशेषु विधानसभा निर्वाचनस्य प्रचारः शीघ्रमेव समाप्यते। पश्चिम बंगाल राज्ये विशेष गहन पुनरीक्षणस्य माध्यमेन पुष्टिः अभवत् यत् प्रायः 27 लक्षाधिकाः जनाः अयोग्याः सन्ति। पेट्रोल डीजल एलपीजी पीएनजी इत्येतेषाम् आपूर्तिः सम्पूर्णे देशे सामान्यः एव अस्तीति प्रशासनेन उक्तम्। प्रशासनेन राज्येषु प्रवासी श्रमिकाणां कृते वितरणाय उपलभ्यमानानां 5 किलोग्राम मुक्त व्यापारस्य एलपीजी इति वातीन्धनस्य दैनिक वितरणं द्विगुणीकर्तुं निर्णयः स्वीकृतः। सम्पूर्णे पश्चिम एशिया देशे संघर्षः इतोऽपि वर्धमानः अस्ति, यतः इज़राइल देशेन ह्यः ईरान देशस्य ऊर्जा आधारित संरचनायाः उपरि आक्रमणं कृतम्। अपि च आईपीएल क्रिकेट क्रीडायाम् अद्य सायंकाले गुवाहाट्याः बारसापारा क्रीडांगणे राजस्थान रॉयल्स दलं मुंबई इंडियंस इत्यमुं दलं सम्मुखीकरिष्यति। अथ वार्ताः विस्तरेण। असम केरलम् केन्द्रशासित पुदुच्चेरी प्रदेशेषु विधानसभा निर्वाचनस्य प्रचारः अद्य सायंकाले समाप्यते। अद्य अन्तिमहोरासु विभिन्नानां राजनैतिकदलानां प्रमुखाः नेतारः मतदातृभिः सह सम्पर्कं स्थापयितुम् एतेषु प्रदेशेषु स्वसमर्थनस्य आधारं सुदृढं कर्तुं समन्वितप्रयासान् कुर्वन्तः सन्ति। निर्वाचनायोगेन मतदातृसूची विशेष गहन पुनरीक्षणस्यान्तर्गतं न्यायिकसमीक्षायाः अन्तर्गतञ्च मतदातृणां पूर्णसूचिः प्रकाशिता, यस्मिन् पश्चिम बंगाल राज्ये 32 लक्षाधिकाः मतदातारः योग्याः सन्ति, तत्रैव प्रायः 27 लक्षाधिकाः जनाः अयोग्याः सन्ति। प्रथमवारं मण्डलवार विवरणानि सार्वजनिकरूपेण प्रसारितानि, यत्र मतदातारः योग्याः अयोग्याः वा इति स्पष्टतया वर्गीकृताः सन्ति। प्रतिवेदनस्यानुसारं 60 लक्षाधिकानि नामानि अधुनापि परीक्षणे सन्ति। पेट्रोल डीजल एलपीजी पीएनजी इत्येतेषाम् आपूर्तिः सम्पूर्णे देशे सामान्यः एव अस्ति इति प्रशासनेन उक्तम्। अद्य नवदिल्ल्यां पश्चिम एशियायाः वर्तमानस्थित्याः विषये अन्तामन्त्रालयीयं विवरणं सम्बोधयन्ती पेट्रोलियम प्राकृतिक गैस मन्त्रालयस्य संयुक्त सचिवा सुजाता शर्मा इत्येषा अवदत् यत् कस्मिन्नपि एलपीजी वितरण समवाये शुष्कतायाः सूचना न प्राप्ता। सा उक्तवती यत् सर्वाणि पेट्रोल पम्प्स क्षेत्राणि सामान्यरूपेण प्रचलन्ति, यत्र पेट्रोल डीजल पर्याप्तमात्रायाम् उपलभ्यन्ते तथा च अभावस्य सूचना नास्ति। श्रीमती शर्मा अवदत् यत् एलपीजी सिलेण्डर इत्यस्य वितरणम् अपि सुगमतया प्रचलति तथा च ऑनलाइन एलपीजी आरक्षणप्रक्रिया प्रायः 90% यावत् वर्धिता अस्ति।
पेट्रोल डीजल एलपीजी पीएनजी की सप्लाई सामान्य है। एलपीजी डिस्ट्रीब्यूटरशिप्स पर कोई ड्राई आउट रिपोर्टेड नहीं है। इसी तरह सारे पेट्रोल पंप भी नॉर्मल ऑपरेट कर रहे हैं। एलपीजी सिलेंडर्स की डिलीवरी नॉर्मल है। ऑनलाइन बुकिंग लगभग 96% है और डीएसी या ओटीपी बेस्ड डिलीवरी लगभग 90% तक है।
उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः अद्य अवदत् यत् राष्ट्रस्य वास्तविकशक्तिः तस्य जनानां ज्ञानेषु मूल्येषु क्षमतासु च निहितास्ति। सः अवदत् यत् इग्नू इत्यादयाः संस्थाः व्यावसायिकप्रमाणपत्रं कौशलप्रशिक्षणं च प्रदातुं स्वस्य प्रादेशिककेन्द्रैः माध्यमेन राष्ट्रियकौशलव्यवस्थायाः निर्माणे प्रमुखां भूमिकां निर्वहन्ति। उपराष्ट्रपतिः अग्रे अवदत् यत् एतादृशाः प्रयत्नाः 47-2000तमवर्षपर्यन्तं विकसितभारतस्य लक्ष्यं साधयितुं साहाय्यं करिष्यन्ति। नवदिल्ल्याम् आयोजितस्य इग्नू संस्थायाः 41वें दीक्षांत समारोहं सम्बोधयन् श्रीराधाकृष्णनवर्यः अवदत् यत् इग्नू इति इन्दिरा गांधी राष्ट्रिय मुक्त विश्वविद्यालयः सुलभ शिक्षायाः माध्यमेन सम्पूर्णं राष्ट्रं संयोजयित्वा शिक्षण परिदृश्यं परिवर्तयित्वा च देशस्य गौरवम् अवाप्नोदिति।
इंदिरा गांधी नेशनल ओपन यूनिवर्सिटी स्टैंड्स फॉर वन पावरफुल आइडिया दैट एजुकेशन मस्ट बी इजीली अवेलेबल टू ऑल इट शुड नॉट बी लिमिटेड टू ए प्रिविलेज्ड फ्यू यस एवरीबडी शुड लर्न टू देयर कैपेसिटी बट एवरीबडी शुड लर्न एटलीस्ट द मिनिमम द ओपन यूनिवर्सिटी हैज प्लेड अ ट्रांसफॉर्मेटिव रोल इन टेकिंग हायर एजुकेशन टू द पीपल
प्रियाः श्रोतारः संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति प्रशासनेन राज्येषु प्रवासे श्रमिकाणां कृते वितरणाय उपलभ्यमानानां 5 किलोग्राम मुक्त व्यापारस्य एलपीजी वातीन्धनस्य दैनिक वितरणं द्विगुणीकर्तुं निर्णयः स्वीकृतः पेट्रोलियम तथा प्राकृतिक गैस मन्त्रालयस्य सचिवः डॉ नीरज मित्तलः अस्मिन् विषये सर्वेषां राज्यानां केन्द्रशासित प्रदेशानां च मुख्य सचिवानुद्दिश्य पत्रम् अलिखत् सः अवदत् यत् एतानि 5 किलोग्रामयुतानि एलपीजी वातीन्धन कुपिकानि राज्य सर्वकारेषु तेषां खाद्य नागरिकापूर्ति विभागेषु च केवलं स्वराज्ये प्रवासि श्रमिकानाम् आपूर्त्यै एव तैल विपणन संस्थानां साहाय्येन प्रदीयन्ते कृषि कृषक कल्याण मन्त्रिणा शिवराज सिंह चौहानेन उक्तं यत् खाद्य सुरक्षायाः सुनिश्चितता कृषकाणाम् आयवृद्धिः च सर्वकारस्य सर्वोच्च प्राथमिकताः सन्ति केन्द्रीयमन्त्री अद्य जयपुरनगरे आयोजितां क्षेत्रीय कृषिसम्मेलनम् अभिसम्बोधयनासीत् सः अवदत् यत् कृषिक्षेत्रं सुदृढीकरणाय दृढः बहुआयामि च प्रयत्नाः कृताः सन्ति
अनाज फल सब्जियां दूध इसकी कमी ना आए यह दायित्व कृषि विभाग पर है खेती पर है किसानी पर है और इसलिए हमारे जो तीन लक्ष्य हैं एक देश की खाद्य सुरक्षा सुनिश्चित करना अन्न के भंडार भरे रहें लेकिन दूसरे किसानों की आय बढ़ा के उनके जीवन स्तर को और बेहतर करना और तीसरे भारत की जनता को पोषण देना और जरूरत पड़े तो दुनिया को भी खाद्यान्न की आपूर्ति करना
सिख मतावलम्बिनां नवमः गुरोः श्री गुरु तेग बहादुर वर्यस्य जन्मदिवसम् अमृतसरस्य गुरोः जन्मस्थाने गुरुद्वारा गुरुका महल इत्यत्र श्रद्धया भक्त्या च आचरितः गुरुद्वारस्य गुरुका महल इत्यस्य कृते श्री हरमन्दिर साहिब अकाल तख्त इत्यतः ह्यः धार्मिकयात्रा समारब्धा उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः प्रधानमन्त्री नरेन्द्रमोदी गृहमन्त्री अमितशाहः पश्चिम पंजाबराज्यस्य मुख्यमन्त्री भगवन्तमानः च अस्मिन् अवसरे गुरुतेगबहादुरवर्याय श्रद्धाञ्जलिम् अर्पितवन्तः सम्पूर्णे पश्चिम एशिया देशे संघर्षः इतोऽपि वर्धमानः अस्ति इज़राइलदेशेन ह्यः ईरानदेशस्य ऊर्जा आधारित संरचनायाः उपरि आक्रमणं कृतम् इज़राइलदेशेन ईरानदेशस्य दक्षिण पारसवातीन्धन क्षेत्रम् असलुयेह नगरे आक्रमणं कृतम् यत् देशस्य बृहत्तमं वातीन्धन क्षेत्रमासीत् अनेन आक्रमणेन वैश्विक ऊर्जा आपूर्तिषु प्रतिकारस्य सम्भाव्य विक्षोभस्य च आशंका उत्पद्यन्ते विदेशमन्त्री डॉ एस जयशंकरः अद्य सेंट किट्स तथा नेविस इत्यस्य विदेशमन्त्रिणा डॉक्टर डेन्जिल एल डगलस इत्यनेन सह मिलितवान् सामाजिकान्तर्जालीये सन्देशे डॉक्टर एस जयशंकरः अवदत् यत् उभौ नेतारौ विकासपरियोजनायाः स्वास्थ्यसहकारस्य डिजिटल क्षमतायाः आपत्प्रतिक्रियायाः च विषये चर्चितवन्तौ डॉक्टर जयशंकरः क्षेत्रीयाणां वैश्विकानां च विषयेषु मतानाम् आदानप्रदानस्य प्रशंसाम् अपि अकरोत् आईपीएल क्रिकेट क्रीडायाम् अद्य सायंकाले गुवाहाट्याः बारसापाड़ा क्रीडांगणे राजस्थान रॉयल्स दलं मुंबई इंडियंस इत्यमुं दलं सम्मुखीकरिष्यति क्रीडा सायं सार्ध सप्तवादने आरभ्यते तत्रैव गतरात्रौ कोलकाता नगरस्य ईडन गार्डन्स इत्यत्र कोलकाता नाइट राइडर्स तथा पंजाब किंग्स इत्येतयोः दलयोः मध्ये क्रीडा वृष्ट्या बाधिता इति वार्ताः